इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। पश्चिमबङ्गप्रदेशे विधानसभानिर्वाचनस्य प्रथमे चरणे स्वातन्त्र्यानन्तरं सर्वाधिकं मतदानसहभागित्वम् अभिलिखितम्, यत्र 72.92% यावत् मतदानम् अभवत्। तमिलनाडुराज्ये अपि ह्यः 14.85% यावत् मतदाने सहभागित्वम् अभिलिखितम्। तमिलनाडुराज्यस्य 75.83% यावत् पुरुषाः, 67.85% यावत् महिलाः, 49.60% यावच्च तृतीयलिङ्गीयाः च मतदानं कृतवन्तः। अत्रान्तरे पश्चिमबङ्गस्य 92.90% यावत् पुरुषाः, 79.90% यावत् महिलाः, 79.85% यावच्च तृतीयलिङ्ग्याः च स्वमतस्य प्रयोगं कृतवन्तः। अपि च गुजरातराज्यस्य उमरेठमण्डलस्य उपनिर्वाचने 3.69% यावत् मतदातारः भागं भजितवन्तः। महाराष्ट्रस्य बारामतीमण्डले 48.75%, राहुरीमण्डले 31.55% यावच्च मतदानम् अभवत्। यथा यथा पश्चिमबङ्गालविधानसभानिर्वाचनम् मतदानस्य द्वितीयचरणे प्रविशति, तथैव सम्पूर्णे राज्ये राजनैतिकक्रियाकलापः तीव्रः अभवत्, यत्र प्रमुखदलानां शीर्षप्रचारकाः प्रचाराणि आरब्धवन्तः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः कृष्णानगरे, मथुरापुरे च जनसभाम् अभिसम्बोधयता भ्रष्टाचारस्य, प्रदेशे अवैधप्रवेशस्य च विषये शासकदलं लक्ष्यीकृतम्। पश्चात् प्रधानमन्त्री रामकृष्णमठमिशनेत्यस्य मुख्यालये बेल्लूरमठे च गतवान्। मुख्यमन्त्री ममता बनर्जी इत्येषा कोलकातानगरे प्रचारं कुर्वन्ती आरोपितं यत् प्रधानमन्त्रिणा लोकतान्त्रिकप्रक्रियायाः अवमूलनं कृतम्। प्रधानमन्त्री नरेन्द्रमोदी आगामि रविवासरे प्रातः 11 आकाशवाणीतः मन की बात कार्यक्रमे स्वीयं मनोगतं प्रकटयिष्यति। मासिकस्य आकाशवाणी कार्यक्रमस्य एतत् 33.1% संस्करणं भविष्यति। आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः अस्य कार्यक्रमस्य प्रसारणं भविष्यति। अयं हि आकाशवाणी वार्ताविभागस्य अन्तर्जालपटले www.newsonair.gov.in इत्यत्र, अपि च न्यूज ऑन एआईआर इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। आकाशवाणी दूरदर्शन वार्ता प्रधानमन्त्री कार्यालय सूचना प्रसारण कार्यालयानां यूट्यूब वाहिनीभिः अपि अस्य कार्यक्रमस्य साक्षात् प्रसारणं भविष्यति। हिन्दीभाषायां प्रसारणस्य पश्चात् अस्य कार्यक्रमस्य आकाशवाण्याः क्षेत्रीयभाषासु अपि प्रसारणं भविष्यति। बिहारस्य मुख्यमन्त्री सम्राट चौधरी अद्य विधानसभायाम् एकदिवसीये विशिष्ट सम्मेलनावधौ विश्वासमतं याचयिष्यति। विधानसभा सचिवालयेन प्रसारितस्य आधिकारिक अधिसूचनायाः अनुसारं सत्रस्यारम्भः प्रातः 11 भविष्यति, यस्मिन् मुख्यमन्त्रिणः विश्वासप्रस्तावः प्रस्तूयते। सहैव सर्वेऽपि मन्त्रिणः विधायकाः च सभायाम् उपस्थिताः भविष्यन्ति। पञ्चायतीराजमन्त्रालयः अद्य नवदेहलीनगरे राष्ट्रियपञ्चायतीराजदिवसम् आचरति। मन्त्रालयः अवदत् यत् राष्ट्रियकार्यक्रमस्य महत्वपूर्णे विषये अस्मिन् कार्यक्रमे प्रधानमन्त्रिणः नरेन्द्रमोदिनः सन्देशः पठ्यते। आईपीएल क्रिकेट क्रीडायां गतरात्रौ मुम्बईनगरस्य वानखेड़े क्रीडांगणे चेन्नई सुपर किंग्स दलेन मुम्बई इंडियंस दलं 3.1% धावनांकैः पराजितम्। तत्रैव अद्य सायं 7:30 बेंगलुरुनगरस्य एम चिन्नास्वामी क्रीडांगणे रॉयल चैलेंजर्स बेंगलुरु दलं गुजरात टाइटन्स इत्यमुं दलं सम्मुखीकरिष्यति। इति वार्ताः।